सेविदन्यानि भोजितरानि यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि योऽस्माद्वा तत्पदे तस्येदम् पृथिवीधर्वा वित्तस्य वाद्यात् स एव मानुषानन्दः तेजे शतन्मानुषानन्दाः स एव मनुष्यजम् धर्वानामानन्दः श्रोत्रियश्च कामहदस्य तेजे शतन्मनुष्यजम् धर्वानामानन्दाः स एव देवगम् धर्वानामानन्दः श्रोत्रियस्य ेशदम् देवगम् धर्वानामानन्दाः स एकः पितृणाञ्चिरलोकलोकानामानन्दः श्रोत्रियश्च जागामहतस्य तेनेशदम् पितृणाञ्चिरलोकलोकानामानन्दाः स एक आजानजानाम् देवानामानन्दः श्रोत्रियश्च जागामहतस्य तेनेशदमाजानजान